अभूरे को रजिपतेरजी नामागस्तायो रधिधा इन्द्रकृष्टी पितोके अच्युतनाये च सूरे वो चन्द्रदर्शनयो विवाच तद्भिजेन्द्रपार्थिवानि विश्वाच्युतानि चिचावयम् ते रजांसि या वाक्षामा पर्वता सोमनानि विश्वम् दृढम् भजते अध्वन्नाते तम् कुत्सेनाभिसुष्टमिन्द्रासुरम् युध्यकुजभङ्गभिष्ठौ तथ प्रभित्ते अथ सूर्यस्य मुराजश्चक्रमविवेरपांसि त्वम् सदान्यपदम्भरस्य पुरो जगन्था प्रतिनिदस्यो अधिक्षो यत्र सत्यासदीवो दिवो दादाय सम्भते सूतक्रे भरद्वाजाय गृणते वसूनि स सत्यसत्त्वन्महतेरणाय रथमादिष्टतुमिरन्न भीमम् यायि प्रापथिन्नभसोपमद्रिप्रतश्रुतश्रावयचर्षणिभ्यः